మస్య శ్రీ గీతామాలా మంత్రి శ్రీ భగవాన్ వేదవ్యాసీ అనుష్ఠుప్ ఛంద శ్రీకృష్ణ పరమాత్మా దేవత అశోచ్యానన్న శోచస్తుంద్రజ్ఞావాదాస్తు భాషసేతి బీజం సర్వధర్మాన్ పరిత్యజ్య మామేకం శరణం వ్రజ ఇది శక్తి అహం త్వాస్తర పాపభ్యో మోక్షం స్వామి భాషు ఇది కీలకం నైనం సింధంతి శస్త్రాణి పవకృష్టాభ్యాం నమః సేనం క్లేదయంత్యాపో నాశోషయతి మారుతః ఇతరి భాగ్నః అచ్చిద్యోయమదాయోయమప్రభూషోష్యేవ చ ఇతి మధ్యమాభ్యాం నమః నిత్యః సర్వగతః స్థానం గతోయం సనాతన ఇత్యనామికాభ్యాం నమః పశ్చిమే పాశ్రూపాణి శతశోతసహస్రశ ఇదిగనిష్టకావ్యాంగ నానావిధాని దివ్యాని నానావర్ణాకృతీని ఇది కర్తవ్యాంగ నయనం సిందంతి శస్త్రాణి నయనం దాతి ఇది హృదయాయ నమ నశేనం క్రీడయంతి అపూర్ణాశో శ్రీమారుత స్వాహ నానావిధాని దివ్యాని నానావర్ణాకృతీని శ్రీకృష్ణస్య పాఠే వినియోగ పార్థాయ ప్రతిబోధితాం భగవతా నారాయణేన స్వయం వ్యాసేన గ్రథితాం పురాణమునినా మధ్యే మహాభారతం అద్వైతామృతవర్షిణీం భగవతీ మష్టాదశాధ్యాయినీ మమ్మ త్వామనుసందధామి భగవత్ గీతే భవద్దేశినీ నమోస్తు వ్యాసవిశాలబుద్ధే ఫుల్లారవిందాయతపత్రమేత యేన త్వయా భారత తైలపూర్ణ ప్రజ్వాలితు జ్ఞానమయ ప్రదీప ప్రపన్న పారిజాతాయ తోత్ర వేత్రైకపాణయే జ్ఞానముద్రాయ కృష్ణాయ గీతామృతదుహే నమ వసుదేవసుతం దేవం కంసచానూరమర్దనం దేవకీ పరమానందం కృష్ణం వందే జగద్గురుం భీష్మాద్రోణతటాజగద్రథ జలా గాంధారనీలోత్పలా శల్యగ్రాహవతీ కృపేణ వహనీ కర్ణేన వేలాకులా అశ్వత్థామ వికర్ణ ఘోరమకురా దుర్యోధనావర్తిని సోత్తీర్ణ ఖలు పాండవైరణి కైవర్తక కేశవ పారాశర్యవత సరోజమమలం గీతార్థగంధోత్కటం నానాఖ్యానక కేసరం హరికథా సంబోధనా బోధితం लोके सज्जन सत्वरैर ते पीयमानं मुदा भूयाद् भारत पंकजं कलिमल प्रध्वंसिनशिरसे मूकं करोति वाचालं पंगुं लंघयते गिरिं यत्कृपातमहं वन्दे परमानन्दमाधवम् यं ब्रह्मा वरुणेन्द्ररुद्रमरुतस्तोन्वन्ति दिव्यैस्तवैर्वेदैस्साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगा ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो यस्यान्तं न विदुरासुरगणा देवाय तस्मै नमः। ॐ श्री परमात्मने नमः। अथ श्रीमद्भगवद्गीता प्रथमोऽध्याय। धृतराष्ट्रोवाच धर्मक्षेत्रे कुरुक्षेत्रे समवेतायो योत्सव मामकः पाण्डवाश्चैव किमकुर्वत संजय। संजय उवाच दृष्ट्वा तु पाण्डवानीकं योधं दुर्योधनस्तदा आचार्यमुपसङ्गम्य राजा वचनमब्रवी पश्यैतां पाण्डुपुत्राणा माचार्य महतीं समं योढां द्रुपदपुत्रेण तव शेषेण धीमता अत्र शूरमहेश्वासा भीमार्जुन समायुधे युयुधानो विराटस्य द्रुपदस्य महारथ धृष्टकेतुस्ते कीर्तन काशीराजस्य वीर्यवान् पुरुजेत् कुन्ति भोजस्य शैव्यस्त नरपुङ्गव युधामान्योऽस्त विक्रान्त उत्तमौजास्त वीर्यवान् सौभद्रो द्रौपदेयास् सर्व एव महारथा अस्माकं तु विशिष्टये तान्निबोधद्विजोत्तमा नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमिते भवान् भीष्मश्च कर्णश्च कृपश्च समितिञ्जय अश्वत्थामाविकर्णश्च सौमदतेस्तथैव च अन्ये च बहवः शूरा मदर्थे त्यक्तजीविता नानाशस्त्रप्रहरणा सर्वे युद्धविशारदा अपरा बलं भीष्माभिरक्षितम् पर्याप्तं त्रिदमेतेषां बलं भीमाभिरक्षितम् अयनेषु च सर्वेषु यथा भागमवस्थिता भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि तस्य सञ्जनयन् हर्षं कुरु रेद्ध पितामह सिंहनादं विनद्योति शङ्खं दद्मौ प्रतापवान् ततः शङ्खाश्च भैर्यश्च प्रणमानकगोमुखा सहसैवाभ्यहनन्त सशब्दस्तुमुलो भवत् ततः श्वेतैर्हयैर्युक्ते महती स्यन्दने स्थितौ माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतु पाञ्चजन्यौ ऋषिकेशो देवदत्तं धनञ्जय पौण्ड्रं दद्मौ महाशङ्खं भीमकर्मा विगोदर अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः नकुलसदेवस्य सुघोषमणिपुष्पकौ काश्यश्च परमेश्वास श्रीखण्डी च महारथ ज्येष्ठद्युम्नो विराटस्त सात्यकीश्च पराजित द्रुपदो द्रौपदेयाश्च सर्वश पृथिवीपते सौहद्रश्च महाबाहु शङ्खान् दद्मो पृथक्पृथ प्रघोषो धर्तुराष्ट्राणां हृदयानि व्यदारय नभस्त पृथिवीं चैव तुमुलो व्यनुनादयन् अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कविध्वज प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डव ऋषिकेशं तदा वाक्य मृदमाहमहीपते अनुवच सेनयोरुभयोर्मध्ये रथं स्थापयमेत्युत यावदेतान् निरीक्षेऽहं योद्धुकामानवस्थितान् कैर्मया सह योद्धव्य मास्मेन्द्रणसमुद्य मे योत्स्यमानानवेक्षेयं य एते समागता धार्तराष्ट्रस्य दुर्बुद्धि युद्धे प्रियचिकीर्षव संयुवाच एवमुक्तो ऋषिकेशो सेन भारत सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् भीष्माद्रोण प्रमुखत सर्वेषां च महीक्षिताम् उवाच पार्थ पश्यैतान् समवेतान् कुरु निति तत्रापश्यस्थितान् पार्थ पितृनथ पितामहान् आचार्यान् मातुलान् भ्रातृन् पुत्रान् पौत्रान् सखींस्तथा श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि तान् समीक्ष्य स कौन्तेय सर्वान् बन्धूनवस्थितान् कृपया परया विष्णु पिशीदन्निदमब्रवीत् अनुवाच ज्येष्ठेमं स्वजनं कृष्ण युयोत्सं समुपस्थितम् सीदन्ति मम गात्राणि मुखं च परिशोष्यति वेपथुश्च शरीरे मे रोमहर्षश्च जायते गाण्डीवं संस्रते हस्तात् त्वक्षैव परिदह्यते न च शक्नोम्यवस्थातुम् समतीव च मे मन निमित्तानि च पश्यामि विपरीतानि केशव न च श्रेयो नु पश्यामि हत्वा स्वजनमावि न काङ्क्षे विजयं कृष्ण न स राज्यं सुखानि च किं नो राज्येन गोविन्द किं भोगै जीवितेन वा येषामार्थे काङ्क्षितं नो राज्यं भोगः सुखानि च तैमेव स्थिता युद्धे प्राणास्त्यक्त्वा धनानि च आचार्या पितरः पुत्रा तथैव च पितामहा मातुलः श्वशुरः पौत्रा श्यालः सम्बन्धिनस्तथा एतान्नहन्तुमेत्सामि हतोऽपि मधुसूदन अपि त्रैलोक्यराज्यस्य हेतुः पूर्णो मही कृते निहत्य धर्तराष्ट्रन्न कापि स्याज्जनार्दन पापमेवाश्रयेदस्मान् धत्तैकानाथ तरिन तस्मान्नाराभयं हन्तुं धातराष्ट्रान् स्वबान्धवान् स्वजनां हि कथं हत्वा सुखिन श्याम माधव यद्यप्येतेन पश्यन्ति दुर्भोपहत चेतस पुरक्षय कृतं दोषं नेत्रद्रोहे च पातकम् कथं न ज्ञेयमस्माभिः पापातस्मान्निवर्तितुम् कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन कुलक्षये प्रणश्यन्ति कुलधर्मः सनातना धर्मे नष्टे कुलं कृष्ण मधर्मो विभवत्युत अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुलस्त्रिय श्रीषु दुष्ट सुवाष्णेय जायते वर्णशङ्कर शङ्करो नरकायैव कुलज्ञानां कुलस्य च पतन्ति पितरो येषां दुःखपिण्डोदकक्रिया दोषैरेतैः कुलज्ञानां वर्णशङ्करकारकै उत्साद्यन्ते जातिधर्मा कुलधर्माश्च शाश्वता उत्सान्न कुलधर्माणां मनुष्याणां जनार्दन नरके नियतं वासो भवतीत्यनुशुश्रुम अहो बत महत् पापं कर्तुं व्यवसिता वयं यद्राज्यसुखलोभेन नान्तुं स्वजनमुद्यता यदि मामप्रतीकार मशस्त्रं शस्त्रपाणय धातुराष्ट्रारणे हन्यो स्तने क्षेमकरं भवेत् सन्देवात् एवमुक्त्वा अर्जुनः सङ्ख्ये रथोपस्थ उपाविशत् विसृज्य सशरं चापं शोकसंविघ्नमानस ॐ तत्सत् श्रीमद्भगवद्गीतासूपनिषत्सूत्रविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अपुरुषादियोगानां प्रथमाध्यायः।